एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रतिनिधिसभायाः स्थनोपवेशेन गतविक्रमवर्षीयं वैकल्पिक विकास वित्त परिचालन विधेयकं बहुमतेन पारितीकृतमस्ति प्रतिनिधिसभायाः ह्य उपविष्टे द्वितीयोपवेशे अर्थमन्त्रिणा डॉ सोनिम वाग्ले भिदेन प्रस्तुतं वैकल्पिक विकास वित्त परिचालन विधेयकं सभया बहुमतेन पारितीकृतमस्ति उपवेशेन प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतमेन प्रस्तुतानि त्रीणि विधेयकानि स्वीकृतानि सन्ति एतद् विक्रमवर्षीयं प्रतिनिधिसभा सदस्य निर्वाचन प्रथम संशोधन विधेयकम् एतद् विक्रमवर्षीयं मतदातृ नामावली सम्बद्धं प्रथम संशोधन विधेयकम् एकाशीति उत्तर द्विसहस्रतम विक्रमवर्षीयं राष्ट्रिय विधि विज्ञान प्रयोगशाला स्थापना संचालन सम्बद्धं विधेयकं च बहुमतेन स्वीकृतमस्ति तत्पूर्वं प्रतिनिधिसभायाः ह्य उपविष्टे प्रथम उपवेशे संसदि प्रधानमन्त्रिणा बालेन्द्र शाहेन एव प्रत्युत्तरं देयमिति अभियाच्य प्रतिपक्षिदल प्रतिनिधिसभायाः उपवेशः अवरुद्ध आसीत् प्रतिनिधिसभायाः उपवेशे सभामुखेन डोलप्रसाद अर्यालेन एव प्रतिनिधिसभायाः नियमावल्याः पालना न विहितेति विपक्षिदलैः आरोपितमासीत् उपवेशे प्रतिपक्षिदलानां नेतारः नियमावल्याः अनुसारेण प्रतिमासम् एकं दिनं प्रधानमन्त्रिणा संसदि उपस्थातव्यमिति नियमस्य पालनां कर्तुं कारयितुं च सभामुखेन प्रधानमन्त्री निर्देष्टव्यः इति याचनां विहितवन्तः प्रतिपक्षिणाम् अवरोधस्य पश्चात् सभामुखेन अर्यालेन प्रतिनिधिसभायाः प्रथमोपवेशः पञ्चदश कलाम यावत् स्थगितः आसीत् तत्पूर्वम् उपवेशे सांसदाः मार्ग दुर्घटनायाः न्यूनीकरणस्य विपद संकट न्यूनीकरणस्य भूकम्प पीडितेभ्यो जनेभ्य आवासस्य व्यवस्थायाश्च विषयेष् सर्वकारस्य ध्यानाकर्षणं विहितवन्तः प्रतिनिधिसभायाः अपरोपवेशः अस्यैव ज्येष्ठ मासस्य द्वादशे दिवसे मंगलवासरे पूर्वाह्नस्य एकादशवादने वस्ता अर्थमन्त्रिणा डॉ सोनिम वाग्ले भिदेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य आयव्ययक निर्माणस्य सन्दर्भे पूर्वार्थमन्त्रिभिस्सह विमृष्टमस्ति अर्थमन्त्रिणा डॉ वाग्ले भिदेन ह्य पूर्वार्थमन्त्रिभि रामेश्वर खनालेन शंकर कोइराला भिदेन डॉ युवराज खतिवड़ा भिदेन डॉ प्रकाश चन्द्र लोहनी इत्यनेन डॉ सुरेन्द्र पाण्डे भिदेन डॉ प्रकाश शरण महत इत्यनेन वर्षमान पुन इत्यनेन विष्णु प्रसाद पौडेलेन जनार्दन शर्मणा च सह विमृष्टम् वर्तते तदवसरे अर्थमन्त्रिणा डॉ वाग्ले भिदेन आयव्यय विवरणस्य निर्माणम् अन्तिमचरणे प्राप्तमस्ति सुशासनस्य आधारेण नेपालजनानां जीवनस्तरं समृद्धं विधातुं आयव्यय निर्माणं विधातव्यमस्ति इत्यतः कार्येऽस्मिन् परामर्शं दातुं पूर्वार्थमन्त्रिभ्यः आग्रहो कृतोऽस्ति तदवसरे अर्थमन्त्री डॉ वाग्ले विगतकालस्य अनुभवं सकारात्मकाभ्यासञ्च आत्मसात् कृत्यैव नूतनायां परिस्थितौ आयव्यय विवरण निर्माणं विधास्यते चेति स्पष्टीकृतवान् आसीत् विमर्शनक्रमे पूर्वार्थमन्त्रिभि उच्चस्तरीय आर्थिक सुधार कार्यदलस्य प्रतिवेदनं क्रियान्वयितुं मन्त्रालयं सुदृढं विधातुं च परामर्शः दत्तः आसीत् तथैव स्रोतसां सुनिश्चयनं विनैव व्यय विवरण निर्माण परम्परां निष्क्रियां कृत्वा राष्ट्रिय गौरवस्य आयोजनानां संख्यां न्यूनीकर्तुमपि पूर्वार्थमन्त्रिभि परामर्श दत्त आसीदिति अर्थमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते पाल्पा जनपदस्य रम्भाग्राम पालिकायां वन्यछत्राकस्य सेवनेन द्वौ जनौ मृतौ स्तः मृतको रम्भाग्राम पालिकायाः पञ्चमौडा क्षेत्रस्य ताहुस्थानस्य 67 वर्षीया विनिमाया कामु मगर 37 वर्षीया बालकुमारी खाम्चा च वर्तेते इति प्रहरिणा ज्ञापितमस्ति वन्यछत्राकस्य सेवनेन रुग्णे इमे तानसेन वर्तिनी युनाइटेड मिशन इति चिकित्सालये उपचारस्य क्रमे मृते स्त इति प्रहरिणा ज्ञापितमस्ति पाल्पा जनपदे वन्यछत्राकस्य सेवनेन पृथक पृथक स्थानेषु द्वादशाधिकाः जनाः रुग्णाः सन्ति एतेषु द्वयोः अवस्था गभीरा वर्तते शिक्षा खेलकूद मन्त्रालयेन नेपाल प्रहरिणः सम्बद्ध निकायानां च सहयोगेन शैक्षिक परामर्श व्यवसायेषु दृष्टायाः विकृतेः अन्त्याय आराष्ट्रं शुद्धिकरणाभियानं सञ्चाल्यमानमस्ति 37-उत्तर-2000 विक्रमवर्षीयायाः शैक्षिक परामर्श सेवा भाषा शिक्षण सम्बद्धायाः निर्देशिकायाः अनुसारेण अप्राप्तानुमतिः छात्रवञ्चक संस्था दण्डयितुं शिक्षा मन्त्रालयेन अभियानमेतद् प्रारब्धमस्ति। विभिन्नेषु अष्टु विश्वविद्यालयेषु रिक्तानाम् उपकुलपति पदानां कृते अष्टादशोत्तर शतद्वयस्य प्रत्याशिनाम् आवेदनानि आधृत्य प्रचयन परामर्श समित्या अध्ययनं प्रारब्धमस्ति। त्रिभुवन विश्वविद्यालयस्य उपकुलपति पदस्य कृते पञ्चाशत् जनानाम् आवेदनानि प्राप्तानि सन्ति। तथैव पूर्वाञ्चल विश्वविद्यालयस्य कृते अष्टात्रिंशत् जनानां, पोखरा विश्वविद्यालयस्य कृते अष्टात्रिंशत् जनानां, सुदूरपश्चिम विश्वविद्यालयस्य कृते एकोनविंशतिर्जनानां, मध्यपश्चिम विश्वविद्यालयस्य कृते विंशतिर्जनानां, लुम्बिनी बौद्ध विश्वविद्यालयस्य कृते एकादश जनानां, कृषि वन विज्ञान विश्वविद्यालयस्य कृते पञ्चदश जनानां, राजर्षि जनक विश्वविद्यालयस्य कृते सप्तविंशतिर्जनानां च आवेदनानि प्राप्तानि सन्ति। शिक्षा खेलकूद मन्त्रालयेन ज्ञापितं वर्तते। प्रत्याशिनाम् आवेदनानि अधीत्य प्रत्याशिनां स्वीकृतां सूचीं प्रकाश्य प्रचयन प्रक्रियाम् अग्रे वर्धयितुं समित्या पूर्वकार्यं विहितमस्ति। उपकुलपतिनां नियुक्त्यर्थं शिक्षा खेलकूद मन्त्रालये विद्यमानया प्रचयन परामर्श समित्या गतवैशाख मासस्य पञ्चविंशे दिवसे आवेदनं प्रदातुं सूचना प्रकाशिता आसीत्। अर्थविद्भिः अर्थतन्त्रं सुदृढं विधातुम् अनुत्पादक व्ययं न्यूनीकृत्य निर्माण व्ययं वर्धयितुं परामर्शनं प्रदत्तमस्ति। प्रतिनिधिसभायाः अर्थसमितेः स्तनोपवेशे अर्थविद्भिः अनुत्पादक परियोजनाः निरस्य अनावश्यकं व्ययं न्यूनीकर्तुम् आयव्ययकस्य विनियोजनस्य क्रमे कार्यसम्पादने आधृतां प्रणालीम् अवलम्बितुं च परामृष्टमस्ति। इति समाचारः।